सप्तशतीन्यासः प्रथममध्यमोत्तरचरित्राणाम् ब्रह्मविष्णुरुद्रारिषयः श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः गायत्रिष्णुगनुष्टुच्छन्दांसि नन्दाशाकम्भरी भीमाशक्तयः रक्तदन्तिका दुर्गा भ्रामर्यो बीजानि अग्निवायुसूर्यास्तत्त्वानि ऋग्यजुः सामवेदाध्यानानि सकलकामनासिद्धये श्रीमहाकाली महालक्ष्मी महासरस्वती देवता प्रीत्यर्थे जपे विनियोगः ॐ खटकिनी शूलिनी घोरा गदिनी चक्रिणी तथा शङ्खिनी चापिणी बाणभुषुण्डी परिघायुधा अङ्गुष्ठाभ्याम् नमः ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके घण्टास्वनेन नः पाहि चापज्यानि स्वनेन च तर्जनीभ्याम् नमः ॐ प्राच्याम् रक्ष प्रतीच्याम् च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्याम् तथेश्वरी मध्यमाभ्याम् नमः ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चात्यर्थघोराणि तैरक्षास्माम् सदा भुवम् अनामिकाभ्याम् नमः ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः कनिष्ठिकाभ्याम् नमः ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोऽस्तु ते करललकरपृष्ठाभ्याम् नमः ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा शङ्खिनी चापिणी बाणभुषुण्डी परिघायुधा हृदयाय नमः ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके घण्टास्वनेन नः पाहि चापज्यानि स्वनेन च शिरसे स्वाहा ॐ प्राच्याम् रक्ष प्रतीच्याम् च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्याम् तथेश्वरी शिखायै वशते ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चात्यर्थघोराणि तैरक्षास्मांस्तथा भुवम् कवचायहुम् ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः नेत्रत्रयाय वौषटे ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोऽस्तु ते अस्त्राय फट् ध्यानम् विद्युद्दामसमप्रभाम् मृगपतिस्कन्धस्थिताम् भीषणाम् कन्याभिः करबालखेटविलसद्धस्ताभिरासेविताम् हस्तैश्चक्रकदासिखेटविशिखांश्चापम् गुणम् तर्जनीम् बिभ्राणामनलात्मिकाम् शशिधराम् दुर्गाम् त्रिनेत्राम् भजे